अज्ञानतिमिरान्धस्य ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः। वाञ्छाकल्पतरुभ्यश्च कृपासिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। नमो महावदन्नाय कृष्णप्रेम प्रदायते कृष्णाय कृष्णचैतन्यनाम्ने गौरस्तुते नमः। हे कृष्णकरुणासिन्धो दीनबन्धो जगतपते गोपेश गोपिकाकान्त राधाकान्त नमस्तुते। सप्तकञ्चन गौराङ्गी राधे वृन्दावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये। हा देवि काकुभर गदगदया जवाच जाते निपत्तभुवि दन्दवतमुद्भटार्थी अस्य प्रसादमबुधस्य जनस्य कृत्वा गन्धर्विके तव गणे गणनं विधेहि। हा देवि काकुभर गदगदयाद्यवाच ज्ञाति निपत्तभुवि दण्डवत उद्भटर्ति अस्य प्रसादमबुधस्य जनस्य कृत्वा गन्धर्विके तव गणगणनं विधेहि। अङ्गश्यामलिमिषटाभिरभितो मन्दीकृतेन्दीवरं जाड्गञ्जागुदरो च सङ्गविदधसङ्गपट्टम्बरस्य श्रिया वृन्दारण्यनिवासिनं सुलीलशब्दामाभिरामोदरं राधास्कन्दनिवेशितभुजं ध्यायें दामोदरम् ध्यायें दामोदरम्। गुरवे गौरचन्द्राय राधिकायै तदालयै कृष्णाय कृष्णभक्ताय तद्भक्ताय नमो नमः। भक्त्या विहीनाय अपराधलक्ष्यै चित्तस्य कामादितरङ्गमध्यै कृपामयि त्वां शरणं प्रपन्ना वृन्दे नमस्ते चरणारविन्दं वृन्दे नमस्ते चरणारविन्दं।